ॐ वाघर्था विवसंपृक्तौ वाघर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ ॐ ॐ एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॐ ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः 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 अस्मद्गुरुभ्यो नमः कृष्णं वन्दे जगद्गुरुम् ॐ हरिः ॐ
उत्तमं सुन्दरं धन्यवादः भगिनी अस्तु
धन्यवादः
यदा तदा अपि यदि तर्हि भेदः कः वदतु शैलजा भगिनी वदतु भेदः कः यदि तर्हि
यदि तर्हि इत्युक्ते जब एंड तब यदा तदा इत्युक्ते इट्स लाइक क्लोजली सेम देन एंड देन
भेदः कः
यदा यदा इत्युक्ते इफ वन एक्शन टेक्स प्लेस the other action overlaps on the first one yada tada iti mam manye iti sochiyati sochiyami yadi tarhi ekam karyam asti because of that one action the other will happen
astu dipshika bagini vadatu yada tada bhedah kah
ha am bagini yada tada matlab jab tab jab kuch hoega
न श्रूयते भगिनी एकनिमिष भवत्याः
जब तब जब तब यदा तदा मतलब जब और तब और यदि यदि तर्हि मतलब यदि होगा तो ऐसा होगा
इत्युक्ते
इत्युक्ते मतलब इफ एंड देन यदि तर्हि मतलब यदि बिजली होती तो बत्ती जलती
अगर
है ना और यदा अगर अगर बिजली होती तो बत्ती जलती
अगर तो
इफ इलेक्ट्रिस हाँ
अगर तो यदि तरहि यदा तदा जब तब
इस जब जब तब हाँ जब तब मतलब is when then
yada tada samayavachaka
samayavachaka
samayavachaka yadi tarhi ityukte yadi bhavati tadanantaram kimapi anya karyam api bhavati samayavachaka na
yada tada samayavachak yada tada samayavachak matlab
समयवाचक इत्युक्ते
समय
यदा जब तब समयवाचक समय की बात होती है
तो यदि यदि भी तो समय पे चल रहा है यदि बिजली होती तो बत्ती जलती
ना 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 यदि अगर वो हुआ तो कभी भी हुआ जब भी हुआ कभी भी हुआ बिजली कब पैदा हुई थी यदि यदि इफ इफ इज नॉट अ समयवाचक अगर इज नॉट अ समयवाचक अजक अगर माने अगर हुआ तब तो अगर तुम बिजली का स्विच बदलोगे तभी बत्ती जलेगी एक्शन इट्स अबाउट द एक्शन यदि तरही इज अबाउट कुछ होगा तब आगे कुछ होगा यदा तदा जब तब दे आर नॉट रिलेटेड दे आर नॉट कॉजल यदा तदा आर नॉट कॉजल दे कैन बी एसोसिएटेड बट दे आर नॉट कॉजल दे आर नॉट हेतु नास्ति तत्र इत्युक्ते यदा
अपन ऐसा भी बोल सकते हैं जब बिजली होती तब बत्ती जलती यदा तदा
अपन बोल सकते हैं
ऐसा भी बोल दोनों लगा सकते हैं
किंतु भेद अस्ति भगिनी यदा इत्युक्ते कदा कदा कीदृश पदम तदा कीदृश पदम समयवाचक कदा आयाति कब आओगे तो समयवाचक प्रश्न तदा आगच्छति तब आएगी तब आई थी तब आ रही है समयवाचक किंतु यदि तरही इत्युक्ते अगर हुआ तब दूसरा कार्य होगा वन इज रिलेटेड टू द अदर लाइक अ चेन रिएक्शन यहां पे चेन रिएक्शन नहीं है यहां पे एक समय पे दो कार्य एक के बाद एक होते हैं इत्युक्ते यदि तरही यदि सृष्टि ही अस्ति तरही नष्टम जायते समय देखो उसमें कितना मतलब समय की बात नहीं है सृष्टि हुई है ना सृष्टि हुई है तो जब सृष्टि होते 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 जब फाइन आखिर में जब मनुष्य पैदा होता है जब मनुष्य बनता है जब मनुष्य फिर भ्रष्ट होता है उसके बाद नष्टम भवति जायते एव लेकिन जब सृष्टि हुई तभी नष्ट हुआ ऐसा नहीं सृष्टि को हुए बहुत समय हो गया मिलियंस ऑफ इयर्स जब तब इज अ समयवाचक जब ये होता है तब ये होता है जब 6 बजते हैं तब मैं उठती हूँ जब 5 बजते हैं तब मैं उठती हूँ जब सूरज निकलता है तब प्रकाश होता है
That means जब तब में the two actions are related.
Related
by एक होगा तो दूसरा होता है
Time
related by time.
Related
by time.
And by almost there is some sense of urgency of time also usually, but not necessarily. लेकिन यदि तरही इत्युक्ते यदि वृक्ष यदि वृक्षः वर्धते तरही किम तरही तत्र पुष्पाणि सन्ति जब वो बड़ा होगा तभी तो फूल आएंगे जब बड़ा ही नहीं होगा तो कैसे फूल आएंगे लेकिन जब वो बड़ा हो रहा होता है तब तो नहीं आते ना फूल वो जब बड़ा हो जाता है यदि एक कार्य पूरा हो जाता है तब फूल आते हैं अवगतम यदि तरही सुधा भगिनी स्वस्य वाक्यैः वदतु यदि तरही यदा तदा भेदः कः
यदि यदि अहम् यदि अहम् पठामि यदि अहम् पठामि तर्हि अहम् किञ्चित् ज्ञातवती
इत्युक्ते यदा यदा पठामि तदा अवगतवती इति तु भवितुमर्हति, किन्तु सर्वदा इति एव अस्ति इति तु न. जब हम पढ़ रहे हैं तभी हमको समझ आए, ऐसी बात नहीं है. उसको पढ़ लो, उसको वो बात को सोचते सोचते सो जाओ, अगले दिन फिर भी निकल जाए, फिर एक हफ्ता निकल जाए, उसके बाद चमकता है, ओ इसका ये अर्थ था.
यदा अहम पठामि तदा ज्ञानं प्राप्नोति.
हाँ, ज्ञानम इत्युक्ते यदा अहम पठामि तदा अभ्यास भवति. पढ़ने से जब जब पढ़ते हो तब अभ्यास होता है. जब पढ़ रहे हो तभी अभ्यास हो रहा है. एक समयवाचक एक किंचित असोसिएटेड हेतु अस्ति. एक ही समय में जैसे यदा यदा वृष्टिः भवति यदि तदा सूर्यः प्रकाशते तदा किं लोमड़ी लोमड़ी किम अर्थ शब्द का लोमड़ी संस्कृत भाषायां
श्रगाल पापा बोल रहे श्रगाल.
हाँ श्रगाल श्रगाल एव. हाँ हाँ श्रगाल उत्तमम. श्रगालस्य विवाहं भवति इति वयं मन्ये. किम् यदि वृष्टिः भवति तदा यदि एंड तदा नाउ लुक. यदि वृष्टिः भवति तदा सूर्यः प्रकाशते ओ सॉरी यदि वृष्टिः भवति अपि यदा तदा सूर्यः प्रकाशते तदा श्रगालस्य विवाह कार्यं भवति. तो वृष्टि भवति उस वृष्टि के दौरान यदा सूर्यः प्रकाशते तदा देन श्रगालः श्रगालस्य विवाहः भवति. अवगतम्? वन इज अ इफ वन इज अ जब. जब माने समयवाचक. अवगतम्? न अवगतम्.
अर्थः अर्थः न अवगतम्.
हम लोग ऐसा तो बोलते नहीं है. वी डोंट स्पीक लाइक. अपन बोलते हैं यदि वर्षा हुई और सूरज निकला ऐसा बोलते हैं ना अपन.
अपन
हाँ तो यदि गीता बोल रही है यदि वर्षा हुई यदा सूरज निकला. गीता यदा जब सूरज निकला ऐसा बोल रही है. अपन ऐसा नहीं बोलते. अपन बोलते हैं यदि वर्षा हुई और सूरज निकला तब तदा तब लोमड़ी की शादी होती है.
इत्युक्ते
हाँ
कॉजल ना. वन इज अ कॉजल. कॉजल इन द सेंस द टू कंडीशंस आर मेट. किंतु यदि यदि एक बार सूर्य निकल आया वृष्टि नहीं हुई तो यदि इत्युक्ते इफ बारिश हुई अगर बारिश हुई तब सूरज निकला तब शादी होती है ना. सो पश्यतु अत्र यदि तर्हि वाक्यं पश्यतु किमर्थम् षड् चत्वारिंशत् तमे पुटे विद्युत् अस्ति दीपः ज्वलति यदि विद्युत् अस्ति तर्हि दीपः ज्वलति इत्युक्ते यदि विद्युत् नास्ति दीपः न ज्वलति एक के बिना दूसरा नहीं होगा किंतु यदा षड्वादनं भवति तदा अहम् उत्तिष्ठामि हम उठे ना उठे छह तो बज जाएंगे और हम कभी भी उठ सकते हैं वन इज अ समय वाचक यदा तदा समय वाचक यदा षड्वादनं भवति यदा षड्वादनं भवति जब ये नहीं कि अगर छह बजेगा तब मैं उठूंगी ऐसे नहीं बोलते हम लोग अगर छह बजेगा तो मैं उठूंगी यू कैन बट ऐसे नहीं बोलते हम लोग कैसे बोलते हैं जब छह बजेगा तब मैं उठूंगी ये दोनों काम साथ में हो ऐसा कोई जरूरी नहीं है लेकिन उसको मैं करूंगी जब जब
इन यदि तरही देर इज अ I mean, it is not certain. If it happens, then it will happen. But in yada tada, it is certain.
No.
Jab aisa hoega, to aisa hoega.
Jab hoga. It is not certain, lekin jab hoga, tab.
No, no. But isme to if aata hai na, yadi mein. Yadi, doubt hai ek.
Doubt hai.
Doubt Second hai. Action is dependent on first action.
Kintu yada tada samaya vachaka eva. Here you have created that sense of time कि भी जब 6 बजेंगे तब मैं उठूंगी but ऐसा नहीं बोलते अगर 6 बजेंगे तब मैं तभी मैं उठूंगी अगर 6 नहीं बजेंगे तो मैं नहीं उठूंगी ऐसा नहीं हो सकता see the difference यदि सृष्टि ही विनश्यति तर्हि कृष्णः जायते अगर सृष्टि नहीं बिगड़ रही है अगर कलयुग नहीं आ रहा है तो नहीं आएंगे कृष्ण जरूरत ही नहीं है एक है अगर और एक है जब फर्क होता है ना अवगतम किंचित वारं वारं पठित्वा अस्तु अन्य एकम अन्य वाक्यं पठतु स्नानं न करोति शरीरं मलिनं भवति यदि स्नानं न करोति तर्हि शरीरं मलिनं भवति यदि स्नानं करोति तर्हि शरीरं मलिनं न भवति One is creating the other. One is very closely associated with the other. But here, the two are happening. It's a time factor. Yada aham tatra gatavan, tada saha pathati sma. It may be causal, it may not be causal. But it's a time thing. जैसे हम लोग हिंदी में दोनों काम हिंदी में दोनों है ये दोनों हम लोग अगर भी बोलते हैं और जब भी बोलते हैं फर्क है कि नहीं दोनों में हिंदी में कब बोलते हैं
हाँ हिंदी में तो फर्क है अगर अगर मतलब जो अपन श्योर नहीं होते तब अगर बोलते हैं
हाँ वही इसमें है जब
हाँ,
जब इज यदा तदा अगर इज यदि
यदि तभी
अवगतम शैलजा
आम भगिनी
अस्तु नवचत्वारिंशत्तमे पुटे सुधा भगिनी पठतु
आम भगिनी एकं द्वे त्रीणि चत्वारि इत्येतासां लिङ्गभेदः अस्ति तदनन्तरं लिङ्गभेदः नास्ति
इत्युक्ते किम्?
एकं द्वे त्रीणि इति एव भेदमस्ति. चत्वार आरभ्य लिङ्गभेदः नास्ति. चत्वार बालकः, चत्वार न, पञ्च
पञ्च
पञ्च बालकः, बालकाः, पञ्च बालिकाः, पञ्च फलानि, सर्वे पञ्च एव.
पञ्च बालकाः, पञ्च बालिकाः, पञ्च फलानि. किन्तु एकमस्ति चेत् वदतु.
एकः बालकः, एका बालिका, एकं फलम्.
तदेव. एकं द्वे त्रीणि चत्वारि. एकं तः चत्वारि पर्यन्तं लिङ्गभेद अस्ति. पञ्चतः लिङ्गभेद नास्ति. अवगतम्?
आं भगिनि.
अस्तु, पठतु दीक्षिका भगिनि. एकं
आं भगिनि. एकम्, एकः बालकः, एका बालिका, एकं फलम्.
स्वस्यैः वाक्यैः वदतु किञ्चित्.
एकः वृद्धः, एका वृद्धा, एकं पुस्तकम्.
एकं पुस्तकम्, उत्तमम्. शैलजा भगिनी अग्रिमं पठतु.
आं भगिनि. बालकद्वयं, बालिकाद्वयं, फलद्वयं. Shall I make one more sentences of each one? Balakadvayam.
Balakadvayam tu samichinam. Anya ritya katham vadamaha
vadaniya? Anya ritya Ramha Ramau, Balakau, Balakau.
Dvau
Balakau.
द्वौ
बालकौ, द्वे बालिके, द्वौ बालकौ, द्वे बालिके, त्रीणि, सोरि, फलद्वयं, फलं फले फलानि, द्वौ फले.
कथं?
द्वे बालिके, द्वे फले.
द्वौ बालकौ, अपि च द्वौ गजौ.
द्वौ गजौ, आम्.
द्वौ गजौ. द्वे गृहे, द्वे पुस्तके,
पुस्तके.
द्वे सङ्गणके,
द्वे अङ्कने, अङ्कनी, नदी, नद्यौ, नद्यः, अङ्कन्यौ. द्वौ न, द्वे भगिनि, द्वे इस् कामन् फार् आल् इसन्ट् इट् भगिनि?
द्वे नद्यौ, द्वे नद्यौ. किमर्थं नद्यौ? द्वे नदी,
द्वे बहुवचनम् अस्ति चेत् नदी, नद्यौ, नद्यः, प्रथम विभक्ति द्विवचनं.
किन्तु द्वि इति पदं स्त्रीलिङ्गरूपं द्वे अस्ति. द्वे नद्यौ. अवगतम्?
हा.
गुरु अस्ति चेत् वदतु.
आ, गुरुः गुरु गुरवः द्वौ गुरु द्वौ गुरु
द्वौ गुरु
गुरु
द्वौ गुरु हरि अस्ति चेत्
द्वौ हरि
द्वौ
हरि
द्वौ हरि द्वौ हरि द्वौ गुरु द्वौ बालकौ उत्तमम् अपि च पिता अस्ति चेत् द्वौ
पिता रमा रमे रमाः पिता
ऋकारान्त भगिनी
ऋकारान्त पितरौ पितरौ अस्ति चेत् द्वौ पितरौ
द्वौ पितरौ उत्तमम् द्वौ पुत्पितरौ उत्तमम् स्त्रीलिङ्गरूपाणि वदतु एकवारं पुनः रमा अस्ति चेत्
रमा रमे रमाः
द्वे रमे अपि च करान्त अस्ति चेत्
द्वौ द्वे नद्यौ
द्वे दीर्घ इ अस्ति ह्रस्व इ अस्ति चेत्
ह्रस्व इ अस्ति चेत् द्वे मती
द्वे मती द्वे बुद्धि द्वे सृष्टि
द्वे रुचि
द्वे व्यक्ति व्यक्ति अपि स्त्रीलिङ्गपदं व्यक्तिः द्वे व्यक्ति उत्तमम् अपि च किम् अन्य कोऽपि अस्ति वा रूपाणि धेनु उकारान्त अस्ति उकारान्त स्त्रीलिङ्गपदमस्ति चेत् द्वे धेनु
धेनु हा द्वे धेनु और
भूमि अस्ति चेत्
भूमि स्त्रीलिङ्ग इकारान्त भूमि अस्ति चेत् भूम्यौ आयाति द्वौ भूम्यौ द्वे भूम्यौ
न भगिनि मतिवत् अस्ति भूमि
भूमि
इकारान्त अस्ति भूमि भूमी नास्ति पदं किं भूमि दीर्घ नास्ति ह्रस्व अस्ति
आं भगिनि द्वे द्वे भूमि
भूमि दीर्घ ई उत्तमं द्वे भूमि अस्तु उत्तमम् अस्तु पापाजी त्रीणि त्रयः पठतु पुनः एकवारं पठतु
त्रयः ईश्वरः
त्रयः
ईश्वराः
त्रयः बालकाः त्रयः ईश्वराः उत्तमं
त्रयः ईश्वराः
स्त्रीलिङ्गमस्ति चेत् तिस्रः
त्रयः
न
त्रयः चित्रा
न पापाजि पुस्तकं पश्यतु तिस्रः तिस्रः इति पदमस्ति स्त्रीलिङ्गमस्ति चेत्
चित्र पितृ
न तिस्रः पुस्तकं पश्यतु पापाजि नवचत्वारिंशत् तमे पुटे
एकः बालकः एका बालिका एकं फलं
त्रयः बालकाः
त्रयः बालकाः तिस्रः बालिका
तिस्रः बालिका
तिस्रः बालिका
अन्य किमपि पदम् अस्ति चेत् मति बुद्धिः अस्ति चेत् तिस्रः बुधयः तिस्रः बुधयः मतयः यथा मतिः मती मतयः बुद्धिः बुद्धी बुद्धयः
बुद्धयः
हा भूमिः भूमी भूमयः तिस्रः भूमयः नदी अस्ति चेत् तिस्रः नद्यः उत्तमम् उत्तमं तिस्रः नद्यः
नद्यः
उत्तमम् अपि च वाणी अस्ति चेत् वाणी 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 अस्ति चेत् तिस्रः तीन तीन वाणी है कैसे बोलेंगे
अच्छा अच्छा तिस्रः वाणी तिस्रः
वाण्यः
श्रवाण्या
तिस्रः वाण्यः देवी अस्ति चेत् तीन देव्या
तिस्रः देव्या
देव नदी नद्यः
नद्यः नदी नद्यः
तिस्रः देव्यः
देव्या
तिस्रः देव्यः सखी अस्ति चेत् तिस्रः सख्यः
सख्यः
तिस्रः सख्यः उत्तमम् उत्तमम् अस्तु नपुंसकलिङ्गं त्रीणि पठतु पापजी
त्रीणि फलानि
अपि च अन्यवाक्यै वाक्यं वदतु त्रीणि
त्रीणि बालिकानि बालिकाः त्रीणि बालिकानि
न न बालिका तु स्त्रीलिङ्गमस्ति नपुंसकलिङ्गं पदं किं
त्रीणि फलानि
फलानि अपि च अन्य किमपि पदमस्ति चेत्
त्रीणि
गृहाणि
गृहाणि त्रीणि गृहाणि
मित्राणि
त्रीणि चित्राणि
चित्राणि मित्राणि वनानि
फलानि
फलानि मधु अस्ति चेत् वदतु दीपशिखा भगिनी मधु अस्ति चेत् त्रीणि
अच्छा त्रीणि मधु मधु उकारान्त नपुंसकलिङ्ग
मधु मधुनी मधूनि
अच्छा मधु मधुनी मधुनी
त्रीणि
त्रीणि मधुनी
मधुनि
मधुनि
त्रीणि मधुनि त्रीणि वस्तूनि
वस्तूनि
त्रीणि वस्तूनि गुरु अस्ति चेत् स्त्री नपुंसकलिङ्गं पदं गुरु अस्ति गुरु इत्युक्ते
त्रीणि गुरूणि
गुरूणि उत्तमं
गुरूणि
उकारान्तपदं गुरु इत्युक्ते भारी गुरु इत्युक्ते भारी अस्तु
गुरु इत्युक्ते जुपिटर्
भारी
भारी तदेव तदेव जुपिटर् भारी अस्ति चेत् बृहत् अस्ति वारि अस्ति चेत् वारि इत्युक्ते पानि त्रीणि
त्रीणि
वारीणि
वारीणि
नपुंसकलिङ्गं
इति इकारान्त नपुंसकलिङ्गं
ईकारान्त नपुंसकलिङ्गं वारि वारिणी वारीणि न भगिनि वारि
वारिणि
एकवारं शृणोतु वारि वारिणी वारीणि
वारि वारिणी वारीणि
तदेव तदेव इत्युक्ते त्रीणि वारीणि एकं वारि द्वे वारीणि न द्वे वारिणी क्षम्यतां मम दोष द्वे वारिणी त्रीणि वारीणि
एकं वारि द्वे वारिणी त्रीणि वारीणि
तदेव तदेव उत्तमम् उत्तमम् अग्रिमं पठतु सरेजा भगिनी
आं भगिनि चत्वारः चत्वारि चत्वारः बालकाः चतस्रः बालिका चत्वारि फलानि चत्वारि फलानि चत्वारः रामाः
अकारान्त सुन्दरं रामाः अपि च
ईकारान्त पुल्लिङ्गं वा भगिनि
पुंलिङ्गमेव
ईकारान्त पुल्लिङ्गः मुनि अस्ति चेत् दीर्घ ईकारान्त
मुनि
दीर्घं वा भगिनि ह्रस्व वा मुनि मुनि
मुनयः यथा हरि हरि कथं कथं
हरि ह्रस्व ह्रस्व मुनि ह्रस्व वा भगिनि
मुनि तदेव
मुनि आम् आम् मुनि मुनि चत्वारि मुनयः बहुवचनमस्ति चेत् मुनयः चत्वारि चत्वारि कव्यः कवयः कवयः क्षम्यतां कवयः
अस्तु एकः द्वौ त्रि एकौ द्वौ एकौ सोरि एकः द्वौ त्रयः चत्वारः सर्वे पुंलिङ्गं शब्द वदतु भगिनि मुनि अस्ति चेत्
ह्रस्व ह्रस्व इकारान्त मुनि आम् एकं एकः एकः मुनिः द्वे द्वे मुनी द्वौ सोरि भगिनि द्वौ मुनि द्वौ मुनि द्वौ मुनि त्रयः मुनयः त्रयः मुनयः चत्वारः मुनयः
तदेव अपि च अस्तु यदि गुरु अस्ति चेत् वदतु
आम् गुरु एकः गुरुः द्वौ गुरू त्रयः त्रयः गुरवः चत्वारः चत्वारः गुरवः स्त्रीलिङ्गरूपम् आम् भगिनि रमा अस्ति चेत् और् सीता एका सीता द्वे सीते तिस्रः सीताः चत्वारः चतस्रः सीताः
चतस्रः रमाः भूमिः अस्ति चेत्
भूमिः अस्ति चेत् एका भूमिः द्वे भूमी तिस्रः भूमयः चतस्रः भूमयः नपुंसकलिङ्गं पदानि आं भगिनि ज्ञानं फलम् एकं फलं द्वे फले त्रीणि फलानि चत्वारि फलानि वस्तु नपुंसकलिङ्गपदं
नपुंसकलिङ्गं
मधुवत् आम् एकं वस्तु द्वे वस्तूनि त्रीणि वस्तूनि चत्वारि वस्तूनि नदी अस्ति चेत् एका नदी द्वे नद्यौ तिस्रः नद्यौ द्वे नद्यौ तिस्रः नद्यः चतस्रः नद्यः
उत्तमम् अस्तु सुधा भगिनि अग्रिमं पठतु
आं भगिनि पञ्च बालकाः
सर्वाणि रूपाणि वदतु किमपि स्वीकृत्य
वृक्षः पञ्चवृक्षाः पञ्चबालिकाः सर्वाणि रूपाणि एकः वृक्षः द्वौ वृक्षौ त्रयः वृक्षाः चत्वारः वृक्षाः पञ्चवृक्षाः
उत्तमम् इकारान्त अस्ति चेत् वदतु पुंलिङ्गं
पुंलिङ्गम् इकारान्त एकः हरिः द्वौ हरी त्रयः हरी हरयः चत्वारः हरयः पञ्च हरयः
अपि च उकारान्त वदतु
उकारान्त एकः गुरुः द्वौ गुरुः त्रयः गुरवः चत्वारः गुरवः पञ्च गुरवः
ऋकारान्त वदतु
एकः पितरः
पिता
एकः पिता द्वौ पितरौ त्रयः पितारः त्रयः पितरः चत्वारः पितरः पञ्च पितरः
उत्तमम् उत्तमं, तादृश एव दातृ, दातृ अस्ति चेत् एकः
एकः दाता, द्वौ दातरौ, त्रयः दातारः, चत्वारः दातारः, पञ्चदातारः.
पञ्चदातारः उत्तमं. पितरः किन्तु दातारः, किञ्चित् भेदः अस्ति तत्र.
पितरः ह्रस्व अस्ति, पितारः
पितरः ह्रस्व सकार, किन्तु दातारः किञ्चित् भेदः अस्ति तत्र. दाता यदि यथा दाता तथा कर्ता वदतु. एकः
एकः कर्ता, द्वौ कर्तारौ, त्रयः कर्तारः, चत्वारः कर्तारः, पञ्चकर्तारः.
उत्तमम् उत्तमम्. अस्तु, गौ गौ जानाति वा? गौ गावौ गावः,
गौ गाव गौ.
पुटसङ्ख्या 20 पुटे पश्यतु. गौः गावौ गावः.
आम्
वदतु.
एकः गौः, द्वौ गाव गावौ, त्रयः गावः, चत्वारः गावः, पञ्च गावः.
तदेव उत्तमम्. अग्रिमं स्त्रीलिङ्गमस्ति चेत् वदतु.
एका वृद्धा, द्वे वृद्धे, तिस्रः वृद्धाः, चतस्रः वृद्धाः, पञ्च वृद्धाः.
वृद्धा उत्तमम्. इकारान्त भूमि अस्ति चेत्
भूमि. एका भूमिः, द्वे भूमी, तिस्रः भूमयः, चतस्रः भूमयः, पञ्च भूमयः.
भूमयः उत्तमं. दीर्घ ईकारान्त लक्ष्मी अस्ति चेत् वदतु.
एका लक्ष्मी, द्वे लक्ष्म्यौ, तिस्रः लक्ष्म्यः, लक्ष्म्यः, चतस्रः लक्ष्म्यः, पञ्चलक्ष्म्यः.
उत्तमम्. अग्रिमं किम्? उकारान्त धेनु वा किमपि, रज्जु धेनु किमपि
धेनु
जानाति वा? धेनुः
धेनु विना दृष्ट्वा एव.
हा वदतु वदतु.
धेनु, एका धेनुः, द्वौ द्वे धेनु, तिस्रः धेनवः, चत्वारः चतस्रः धेनवः, पञ्च धेनवः.
उत्तमम् उत्तमं. धेनवः उत्तमम्. अस्तु, दीर्घ ऊ अस्ति अपि स्त्रीलिङ्गपदे. वधू, दीर्घ ऊ अस्ति, अहं पठामि. वधूः, वध्वौ, वध्वः. यदा नदी अस्ति दीर्घ ई अस्ति समानेव, किन्तु ऊकारान्त इत्युक्ते वधूः. एका वधूः, वदतु भगिनि.
एका वधूः, द्वे वध्वौ, तिस्रः वध्वः, चतस्रः वध्वः, पञ्च वध्वः.
उत्तमं. यथा नदी अस्ति किन्तु अत्र ऊकारान्त अस्ति. अस्तु, ऋकारान्त जानाति वा? मातृ मातृ वदतु.
मातृ, एका माता, द्वे मातरौ तिस्रः मातरः चतस्रः मातरः पञ्चमातरः.
उत्तमम् उत्तमम् अस्तु. नपुंसकलिङ्गं प्रथम तु गृहमस्ति चेत् वदतु.
एकं गृहं द्वे गृहे त्रीणि गृहाणि चत्वारि गृहाणि पञ्चगृहाणि.
इकारान्त वारि वारि
वारि वा वारि वारिणि वारीणि. एकं वारि एकं वारि द्वे वारिणि त्रीणि वारीणि चत्वारि वारीणि पञ्च वारीणि
वारीणि. उकारान्त धेनु
धेनु दे धेनु एकं उकारान्त धेनु
जानाति वा. धेनुः धेनु कीदृशपदं प्रथम तु.
धेनु पुंलिङ्गपदमस्ति.
स्त्रीलिङ्गं भगिनि.
स्त्रीलिङ्गम् ओके.
उकारान्त स्त्रीलिङ्गपदम् धेनुः मुनिवत्
मुनिवत् ओके. धेनु ओके.
गुरुवत्
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 एकं धेनु
न एका धेनु
ओ एका एका धेनुः
द्वे
एका धेनुः द्वे धेनु तिस्रः धेनुः
न तिस्रः धेनवः
धेनवः स्त्रीलिङ्गं स्त्रीलिङ्गम् ओके सारि धेनवः तिस्रः धेनवः चतस्रः धेनवः पञ्चधेनवः
उकारान्त स्त्रीलिङ्गमस्ति. अधुना उकारान्त नपुंसकलिङ्गं वदतु यथा मधु
मधु मधु एकं मधु द्वे मधुनि त्रीणि मधूनि चत्वारि मधूनि पञ्च मधूनि.
उत्तमं. गुरु गुरु यथा नपुंसकलिङ्गं पदमस्ति चेत्
एकं गुरु द्वे गुरूणि गुरुणि द्वे गुरुणि तिस्रः गुरूणि
त्रीणि
त्रीणि सोरि त्रीणि गुरूणि चत्वारि गुरूणि पञ्च गुरूणि
गुरूणि. उत्तमम् उत्तमं. दात्र नपुंसकलिङ्गम् अपि अस्ति. एकं तु पुंलिङ्गमस्ति. नपुंसकलिङ्गं पदम् अपि अस्ति. कथं चलति? दातृ दातृणि दातृणि दीर्घ दीर्घ दातृणि बहुवचनरूपं कथं वदामः? दातृणि दातृ दातृणि दातृणि अवदतु एकवारम्.
एकं दातृ द्वे दातृणि त्रीणि दातृणि चत्वारि दातृणि पञ्च दातृणि.
किञ्चित् क्लिष्ट जात.
सर्वे दीर्घमस्ति.
उत्तमम् उत्तमम् अस्तु. कोऽपि प्रश्नः अस्ति अत्र? अस्तु, अग्रिमम् अग्रिमे पुटे हा पठतु दीक्षिका भगिनी, आरम्भं करोतु. युतकं दत्तं सम्पूर्ण कति सन्ति इति लिखतु, पठतु भगिनी. ओ नास्ति दीक्षिका भगिनी, अस्तु अस्तु. पापाजी अस्ति वा? पापाजी पठतु अग्रिमं पुटे. पञ्चाशत् तमे पुटे अभ्यासपुस्तके पञ्चाशत्. पञ्चाशत् तमे पुटे बहूनि चित्राणि सन्ति तत्र. प्रथमं पठतु.
एकं युतकं,
तस्य उपरि एकं वाक्यम् अस्ति, लघुवाक्यं पठतु.
कति सन्ति इति लिखतु. कति सन्ति इति लिखतु.
लिखतु.
एकं युतकम् अस्ति.
अस्ति एकं युतकं, कथं जानीमः एकं
एकं युतकम् अस्ति?
उत्तमम्. अग्रिमं.
द्वि शुनकः.
द्वि शुनकः अस्ति पापाजी. एकं द्वौ
शुनकः
चत्वारः.
चत्वारः शुनकः सन्ति.
चत्वारः समीकरोतु. चत्वारः
शुनकः शुनकाः.
उत्तमम्.
चत्वारः शुनकाः सन्ति.
अग्रिम.
त्रीणि पिपीलिकानि सन्ति.
पिपीलिका कीदृशपदं? स्त्रीलिङ्गं वा रमावत् वा?
पिपीलिकानि
न रमावत् अस्ति न, फलवत् नास्ति. फलवत् नास्ति, रमावत् अस्ति चेत्
रमा. पिपीलिकाः
पिपीलिकाः. तिस्रः
त्रीणि तिस्रः पिपीलिकाः सन्ति.
तिस्रः पिपीलिकाः सन्ति. अग्रिमम्. गजाः न श्रूयते. अस्तु शैलजा भगिनी.
आं भगिनि.
अस्तु शुनकः, सर्वे वदतु. एकः
एकः शुनकः. द्वौ शुनकौ त्रयः शुनकः चत्वारः शुनकः त्रयः शुनकाः क्षम्यतां त्रयः शुनकाः चत्वारः शुनकाः पञ्च शुनकाः.
पञ्च तु नास्ति, चत्वारः.
चत्वारः, सोरि भगिनि, क्षम्यतां, चत्वारः शुनकाः.
एकमेकं स्वीकृत्य. एका
पिपीलिका स्त्रीलिङ्गम् अस्ति चेत् एका रमावत्. एका पिपीलिका. द्वे पिपीलिके तिस्रः पिपीलिकाः चतस्रः पिपीलिकाः त्रयः सोरि भगिनि, त्रयः पिपीलिकाः तिस्रः पिपीलिकाः.
तिस्रः चतस्रः चतस्रः न,
ओन्लि देर् आर् त्री भगिनि. आम्
न अहं किञ्चित् वदामि. चतस्रः नास्ति, चतस्रः एव.
चतस्रः नास्ति भगिनि.
न त्र नास्ति तत्र. सृ नास्ति, सृ अस्ति. सृ नाट् सृ.
That is that the last letter is not thra bhagini?
Na bhagini, sra sakara adho bhage rephayati tada tadeva. Chatasraha nasti, chatasra.
Okay, I thought that is that letter is thra.
Na.
Yara lavasesha.
Na. Tisraha, chatasraha.
Chatasraha pipilikaha.
Sakara repha. Sakara repha, tadeva.
Aam.
Astu, uttamam. Bina bhagini, asti va? Sagatam.
No, bhagini, I listen. I'm learning Uriya. I'm listening better.
Astu, Sudha bhagini. Karotu agrimam.
Aam bhagini.
एकः
गजः एकः गजः द्वौ गजौ त्रयः गजाः चत्वारः गजाः पञ्च गजाः
सन्ति पञ्च गजाः
गजाः सन्ति
आहत्यः पञ्च गजाः सन्ति आहत्य इत्युक्ते
इन् टोटल्
टोटल् इन् कन्क्लूजन् इन् टोटल् वदतु अग्रिमम्
सिंहः एकः सिंहः द्वौ सिंहौ स्तः
उत्तमम् अग्रिमम्
एकः धेनुः अस्ति
धेनु
कीदृशपदं धेनु धेनु उकारान्त धेनु
लिङ्गम्
धेनुः स्त्रीलिङ्गं
वदतु
एका धेनु एका धेनुः
धेनुः उकारान्त धेनुः एव गुरुवत् एव किन्तु स्त्रीलिङ्गं गुरुः गुरू गुरवः समान एव किन्तु धेनु तु स्त्रीलिङ्गमेव इत्युक्ते धेनु अर्थः तु गाय इत्युक्ते बेल् नास्ति अर्थः अपि स्त्रीलिङ्गमेव भगिनि इत्युक्ते बेल् को धेनु नहीं बोलते धेनु इत्युक्ते केटल् नास्ति धेनु इत्युक्ते कौ एव बुल् नास्ति अस्तु उत्तमं पापाजी दीक्षिका भगिनी तु नास्ति तत्र म्यूट् अन्म्यूट् करोमि पापाजी अस्तु मक्षिका वदतु रमावत् अस्ति
द्वौ मक्षिकाः
न मक्षिका स्त्रीलिङ्गम् अस्ति चेत् एका
माला माले माला मालां माले माला
अत्र
द्वौ मक्षिके
द्वौ तु पुंलिङ्गं पदमस्ति द्वे स्त्रीलिङ्गमस्ति
द्वे मक्षिके
द्वे मक्षिके उत्तमम् एका मक्षिका द्वे मक्षिके अग्रिमे
त्रीणि मक्षिकाणि चत्वारि तिस्रः
मक्षिकाः
अच्छा तिस्रः मक्षिकाः
चतस्रः
मक्षिकाः पञ्चतः मक्षिकाः
पञ्चमक्षिकाः पञ्च तु किमपि भेदः नास्ति तत्र लिङ्गभेदः नास्ति एव अग्रिमं गर्दभः एकं चित्रमस्ति वदतु
एकः गर्दभः द्वौ गर्दभौ त्रीणि गर्दभाणि
त्रयः
त्रयः गर्दभः
गर्दभाः किमर्थम् रामः रामौ
रामा
गर्दभाः
गर्दभाः
अग्रिमम्
एकः एकः गर्दभः द्वौ गर्दभौ त्रीणि गर्दभाः त्रीणि गर्दभाणि
त्रयः गर्दभाः
त्रयः गर्दभाः त्रयः
उत्तमम् उत्तमं धन्यवादः पापाजी अस्तु शैलजा भगिनी अग्रिमं करोतु
आं भगिनि व्याघ्रः पुल्लिङ्गम् अस्ति चेत् व्याघ्रः एकः व्याघ्रः द्वौ व्याघ्रौ त्रयः व्याघ्राः सन्ति
त्रयः व्याघ्राः सन्ति
अग्रिमम् अर्धोरुकम् अर्धोरुकम् अर्धोरुकं नपुंसकलिङ्गम् अस्ति चेत् एकम् अर्धोरुकं द्वौ अर्धोरुके
द्वौ तु नास्ति भगिनि
द्वे सोरि भगिनि द्वे फलं फले फलानि द्वे अर्धोरुके त्रीणि अर्धोरुकानि चत्वारि अर्धोरुकानि पञ्च अर्धोरुकानि षट् अर्धोरुकानि अर्धोरुकानि सन्ति
अर्धोरुकाणि सन्ति तत्र णत्वं भवति वा न वा
अर्धोरुकानि णत्वं कानि रेप नास्ति लेकिन् कवर्ग अस्ति चेत् अर्धोरु
रेप नास्ति वा तत्र पदे
अर्धोरुकम् अर्धोरुकम् एकः स्वरः मध्ये अस्ति
किं कस्य स्वरः
अर्धोरुकानि
भगिनि
एकः स्वरं रेपः और् नकारमध्ये का वर्ग अस्ति
न न रेपः नकारमध्ये किं किं सन्ति वदतु
अर्धोरुकं रेपः अर्धोरुकानि रेपः नकारमध्ये
वदतु किं किं
कवर्ग योगः अकारः आकारः भवति
पूर्वं किं ककारस्य पूर्वं किं
ककारस्य पूर्वं रेप अस्ति अर्धोरु रेपः उकारान्तः अस्ति
उकारान्त
उकारान्तः
भगिनी शृणोतु मध्ये प्रथम तु उकारान्त ककार आकारान्त त्रीणि सोरि त्रयः वर्णाः सन्ति
त्रयः वर्णानि सन्ति आं भगिनि किन्तु एकः नकारः ऋकारः मध्ये एकः वर्णः अस्ति भगिनि ककारः अस्ति चेत् नत्वं भवति वा ऋकारः अस्ति चेत् नत्वं भवति
निमित्तं किं
निमित्तं रकार पकार शकार
रेफा अस्ति अत्र रेफा तु अस्ति अधुना मध्ये
ककारः अस्ति
स्वर अस्ति अपि च
आकारः अस्ति
न उकार अस्ति तदनन्तरम् आकार अस्ति स्वरौ अस्ति इत्युक्ते द्वौ स्वरौ अस्ति अपि च एकव्यञ्जनककार अस्ति प्रश्न उदयति णत्वं भवति वा न वा सुधा भगिनी वदतु
णत्वं भवति भगिनि कवर्ग आकारः कवर्गः योगः आकारः नत्वं भवति दट्स् वाट् यु टोल्ड् मी बिफोर् अर्लियर्
उत्तमं तदेव कुप् वाङ् नुं व्यवायेऽपि इति सूत्रेण नट्वं भवति एव इत्युक्ते सम्पूर्णपदं वदतु
अर्थोर्काणि काणि
उत्तमं काणि ह्रस्वं
हा ह्रस्व
काणि उत्तमं तदेव सुन्दरम् अस्तु अग्रिमं
सूत्रं एका माला द्वे माले तिस्रः मालाः चत्वारः चतस्रः मालाः पञ्च मालाः षट् मालाः आहत्य षट् मालाः सन्ति ऊरुकम् एकम् ऊरुकं द्वे ऊरुके
अग्रिमम्
गृहगोधिका एका गृहगोधिका द्वे गृहगोधिके तिस्रः गृहगोधिकाः चतस्रः गृहगोधिकाः पञ्च गृहगोधिकाः षट् गृहगोधिकाः
षड् डकार भवति किमर्थं डकार आयाति
षड् गृहगोधिकाः
गकार कीदृशवर्णः मृदु
मृदु
मृदु अस्ति चेत् षट् टकार तु कर्कश अस्ति कर्कश मृदु भवति षट् षट् गृहगोधिका इत्युक्ते सन्धि भूत्वा षड् गृहगोधिकाः अवगतं भगिनि परवर्ण कीदृशवर्णः परवर्ण मृदु अस्ति मृदु अस्ति चेत् सन्धि भूत्वा कर्कशवर्ण पूर्वं पूर्वस्य कर्कशवर्णस्य परिवर्तनं भूत्वा मृदु अपि भवति इति षड् गृहगोधिकाः सन्ति हा अस्तु शैलजा भगिनी अग्रिमम्
आं भगिनि चोलः एकः चोलः अस्ति एकः चोलः द्वौ चोलौ त्रयः चोलाः चत्वारः चोलाः पञ्च चोलाः षट् चोलाः
अत्र षट् चोलाः षड् भवति वा
षट् चोलाः नास्ति षड् नास्ति षट् अस्ति
किमर्थं
च इति मृदु अस्ति चेत् टकार षट् ही भवति
मृदु अस्ति वा
चकार च चवर्गस्य मृदु नास्ति सोरि भगिनि कर्कश अस्ति कर्कश अस्ति
कर्कश अस्ति चेत् षट्
षट्
किमपि परिवर्तनं नास्ति चकार अपि कर्कश चकार अपि कर्कश 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 इति तिष्ठति एव उत्तमम् इत्युक्ते षट् चोलाः
सन्ति शाटिका एका शाटिका द्वे शाटिके तिस्रः शाटिकाः चतस्रः शाटिकाः पञ्च शाटिकाः सन्ति.
आहत्य पञ्चशाटिकाः सन्ति.
आहत्य पञ्चशाटिकाः सन्ति.
उत्तमम्. अग्रिमम्.
पार्दाशुकम्
न भगिनि, सम्यक् सम्यक् पठतु.
पादोषुकं वा, पादोषुकं वा भगिनि?
शुकम्.
पादाशुकम्.
पादांशुकं. बिन्दु अस्ति तत्र.
आम् आं भगिनि, पादांशुकं. पादांशुकम् एकं पादांशुकं द्वे पादांशुके त्रीणि पादांशुकानि शुकाणि त्रीणि त्रीणि पादंशुकानि चत्वारि पादांशुकानि शुकाणि.
नत्वं नास्ति तत्र तु.
अरे शुकाणि
निमित्तं नास्ति न भगिनि, कुत्र निमित्तमस्ति?
शुकाणि
निमित्तमस्ति वा?
नकारं पूर्वं ककार अस्ति चेत्
निमित्तं किं? निमित्तम् इत्युक्ते
स्वरः. निमित्तम् अस्ति चेत् नकारः स्वरः मध्ये.
भगिनि मम प्रश्नः कः, निमित्तम् इत्युक्ते किं?
रकार शकार रुकार इति.
भगिनि मम प्रश्नः, प्रश्नस्य उत्तरं वदतु. निमित्तम् इत्युक्ते किम्?
इट् इस् कास्.
निमित्तम् इत्युक्ते कास्. निमित्तं तत्र अस्ति वा इति मम प्रश्नः.
न भगिनि,
नत्वं विषय एव नायाति न?
न.
उत्तमम् उत्तमं. पुनः वदतु सर्वाणि रूपाणि.
आं भगिनि, पादांशुकम् एकं पादांशुकं द्वे पादांशुके त्रीणि पादांशुकानि शुकानि त्रयः चत्वारः चत्वारि पादांशुकानि शुकानि सन्ति. आहत्य चत्वारि पादांशुकानि सन्ति.
उत्तमं. सुधा भगिनि,
आं भगिनि, शिरस्त्रम् एकं शिरस्त्रं द्वे शिरस्त्रे त्रीणि शिरस्त्राणि चत्वारि शिरस्त्राणि पञ्च शिरस्त्राणि षड् शिरस्त्राणि सप्त शिरस्त्राणि. आहत्य षड् शिरस्त्राणि सन्ति. अन्तर्युतकम् एकम् अन्तर्युतकं द्वे अन्तर्युतके त्रीणि अन्तर्युतकानि चत्वारि अन्तर्युतकानि पञ्च अन्तर्युतकानि आहत्य पञ्च अन्तर्युतकानि सन्ति.
तत्र णत्वं भवति वा?
अन्तर्युतकानि णत्वं न भवति.
मध्ये के के वर्णाः सन्ति वदतु.
यकार उकार तकार ककार
इत्युक्ते बाधा अस्ति वा न वा तकार तु बाधा करोति इत्युक्ते का वर्ग पा वर्ग तु बाधा न करोति ता वर्ग तु बाधा ता वर्ग तु न का अस्ति न पा अस्ति ता वर्ग बाधा करोति णत्वस्य विषये बाधा करोति इत्युक्ते न भवति एव अस्तु अधुना किं कुर्मः वयं पुनः उपरि पश्यतु उपरि भागे शुनकः शुनकः इत्युक्ते कुत्ता अधुना पर्यायवाचि पदानि सन्ति वा न वा अत्र पश्यतु स्क्रीन् मध्ये अहं प्रेषयामि शुनका तु पुंलिङ्गं पदम् इति एव दत्तं किन्तु स्त्रीलिङ्गं पदम् अपि अस्ति श्वा श्वा अपि समानार्थकपदं किन्तु स्त्रीलिङ्गपदं श्वा श्वा अस्ति चेत् वदतु शैलजा भगिनी
सोरि भगिनि श्वा अस्ति चेत् शुनकः शुनकः पुल्लिङ्गः अस्ति चेत् डाग् एण्ड् श्वा स्त्रीलिङ्गम् अस्ति चेत् समानेव अर्धं
वदतु सर्वाणि रूपाणि वदतु
श्वा रमावत् आकारान्तः
इत्युक्ते अत्र पश्यतु चित्रं पश्यतु भगिनि वदतु एका श्वा
एका श्वा द्वे श्वे द्वे श्वे तिस्रः श्वाः श्वाः आं भगिनि श्वाः
इत्युक्ते
तीन् कुत्ते कुत्ते हैं
कुत्ते उत्तमं तदनन्तरं
तदनन्तरं चतस्रः श्वाः पञ्चश्वाः
उत्तमं श्वाः अपि च श्वन् अपि अस्ति श्वन् नकारान्तपदं श्वन् अपि च शुनी दीर्घ अपि स्त्रीलिङ्गं पदं नदीवत् अस्ति चेत् वदतु सुधा भगिनी रूपाणि
आं भगिनि एका एका शुनी एका शुनी
नत्वं नास्ति
एका शुनी द्वे शुणौ तिस्रः शुनीः
शून्यः
शून्यः
शून्यः तिस्रः शून्यः चतस्रः शून्यः शून्यः उत्तमम् उत्तमं श्वान पापजी श्वान अपि समानार्थकपदमस्ति
सो मेनि मीनिङ्ग्स् फोर् डाग् भगिनि ऐ मीन् जेण्डर् पुल्लिङ्गः स्त्रीलिङ्गः
सन्ति एव श्वान् अस्ति चेत् पापजी वदतु एकः
एकः श्वानः द्वौ श्वानौ त्रयः त्रयः श्वान् श्वानकः
त्रयः राम अस्ति चेत्
त्रयः शुनका
न न न राम रामः रामौ
रामाः
रामाः अत्र
शुनकाः
शुनका तु अस्ति न श्वान् वयं श्वान् इति पदस्य रूपाणि वदामः चेत् इत्युक्ते एकः श्वान्
एकः श्वानः
द्वौ
द्वौ श्वानौ
त्रयः
त्रयः श्वान्यः
श्वानाः
त्रयः श्वानाः
यथा राम
श्वानाः
श्वानाः अपि च अग्रिमं करोतु पापाजी सरमा अपि एकं नाम अस्ति गाड् इन्द्र फीमेल् डाग् अहं तु कथा न जानाति जानामि पापाजी जानाति वा वदतु कथा वदतु
किं कथा
एकं कथा अस्ति सरमा इति नाम स्वीकृत्य एकं कथा अस्ति इन्द्रदेवता किमपि अस्ति वा तत्र नेम् आफ् मिथिकल् फीमेल् डाग् इन्द्र गाड् इन्द्र इन्द्र का नाम है ये शर्मा मतलब वो इसमें रूप में आए होंगे ना शर्मा के रूप में आए होंगे ये कथा जानते हैं आप हम नहीं जानते कॉपी जाना थी वहाँ
I think Ahalya story Gautam Ahalya
Oh asti va
I think because he is I think
Gautam Rishi had come in the form of a cock.
No, not that he gets cursed by Rishi when Ahalya when he tries to have a relationship with it. I think he gets cursed or something. I think that story, probably.
Sarma asti, Wikipedia tu asti. Kintu Wikipedia sarvada tu samyak na asti. Iti tum janami eva. In Hindu mythology, Sarma is a mythological being referred to as the female dog of the gods. Or Devashuni. She first appears in one of the Hinduism's earliest texts, the Rig Veda, in which she helps the king of the gods, Indra, to recover divine cow stolen by Panis, a class of demons. This legend is alluded to in many later texts, and Sarama is often associated with Indra.
Oh, okay. It's a different... He gets cursed, that's it. Maybe that's a different thing.
Bhagini, there is a story here, Bhagini, mythology for the millennial, the rise and fall of Sarma, dog of gods.
Where is that?
No, Google, just I typed as Sarma dog story. Sarma story in Hinduism. Yeah, first spot, first post.
Vyasa online, is it that one? Is it Vyasa online? Okay, okay.
Sarma rose to fame when a gang of robbers called Pani stole Indra's cow herd. Indra first sent a bird. Suparna to get the cows, but the bird is too easily bribed by Dahi and goes back and tells Indra that there are no cows. Indra then kicks the bird in the stomach, which seems like a cruel and unusual punishment, but this causes Suparna to vomit up the curd and be branded as traitor. In goes Sarma, he's fully diplomatic and convinces the Panis to return the cows as well as securing a deal with Indra that her future children will always be able to have milk whenever they like. As a cat person, this is sounding very suspicious to me. In any version of the story, not seen up by the dog people, Sarma is the one who is tried by milk and kicked in the stomach, etc. भगवतं मध्ये अस्ति एव न जानामि सरमा अस्तु नाम तु न जानामि सरमा अस्तु अस्तु अन्यपदमस्ति डाग् लैक् फेलो श्वनर आद्मी कुत्तजस आद्मी मीन्स् दे हेव् सर्टन् ट्रेट्स् तदेव न ट्रेट्स् आफ् जेलसि इन् संस्कृत देर् इस् अ श्लोक कुत्ता कुत्ते सप्से वन् आफ् द ट्रेट्स् इस् जलसि तदनन्तरं
भगिनी शेर लिङ्क् दट् द स्टोरि सीम्स् टु बि लिटल् मोर् बेटर् रिटन् यस् आन्लैन्
अस्तु अपि एकम् अन्यपदमस्ति कुक्कुरः कुक्कुरः पुंलिङ्गं पदम् इत्युक्ते शुनकः कुक्कुरः कुक्कुरः अस्ति चेत् वदतु भगिनी शैलजा भगिनी रूपाणि वदतु
भगिनी कुक्कुरः रामवत् कुक्कुरः कुक्कुरौ कुक्कुराः कुक्कुरं कुक्कुरौ कुक्कुरान् कुक्कुरेण कुक्कुराभ्यां कुक्कुरैः कुक्कुराय कुक्कुराभ्यां कुक्कुरेभ्यः कुक्कुरात् कुक्कुरात् कुक्कुराभ्यां कुक्कुराभ्यः कुक्कुरस्य कुक्करयोः कुक्करस्य कुक्करयोः कुक्करयोः कुक्कुराणां कुक्कुरे कुक्करयोः कुक्कुरेषु
उत्तमम् उत्तमं भगिनि उत्तमम् अस्तु वयं किं कुर्मः गृहपाठरूपेण एकवारं पुनः वदतु सर्वाणि रूपाणि इत्युक्ते सङ्ख्यारूपाणि अपि च एकमेकं नूतनपर्यायवाचीपदम् अपि अन्वेषणं कृत्वा अत्र लिखतु एव इत्युक्ते शुनकः तु अस्ति शुनकः अस्ति चेत् अन्यपदं किम् अन्यपदं श्वन श्वन अपि अस्ति श्वन अस्ति अपि च किं श्वा अस्ति इति एकमेकं द्वे किमपि किञ्चित् अन्वेषणं कृत्वा अत्र सर्वाणि इत्युक्ते पिपीलिका अन्यपदम् अस्ति वा व्याघ्र उरुकं किमपि अन्यपदम् अस्ति चेत् एकमेकं लिखतु अवगतम् न श्रूयते वा
आं भगिनि
आं भगिनि सम् डिस्टर्बेन्स् इस् देर्
अस्तु 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 अधुना तु श्रूयते वा
नौ इट्स् गुड् भगिनि
अग्रपाठरूपेण इति करोतु इत्युक्ते युतकं शुनक पिपीलिका सर्वे पदानि एकम् एकवारं दृष्ट्वा अन्यपदं पर्यायवाचिपदम् अपि किञ्चित् किमर्थं किमपि पदं कुत्रापि आयाति इति भवितुम् अर्हति श्लोके आयाति कुत्रापि आयाति संस्कृतभाषायां किञ्चित् ज्ञानमेव वर्धते अस्तु अन्तिमशान्तिपाठ पापाजी शान्तिपाठ वदतु पापाजी शान्तिपाठ
पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते हरिः ॐ श्रीगुरुभ्यो नमः हरि
ॐ सर्वं श्रीकृष्णार्पणमस्तु हरिः ॐ सर्वं उत्तमं भवेत्
धन्यवादः
सर्वेभ्यः नमो नमः नमस्कारः
धन्यवादः भगिनि
धन्यवादः भगिनि
सर्वेभ्यः नमस्कारः
सर्वेभ्यः नमस्कारः पापाजी नमस्कारः
नमस्कारः सर्वेभ्यः
धन्यवादः धन्यवादः भगिनी